सर्वयोनि सुकौन्तेया मूर्तया संभवन्तिया तासां ब्रह्मा महद्योनि अहम् बीजप्रदपिता मां च यो व्यभिचारेण भक्तियोगेन सेवते सगुणान् समतितेतान् ब्रह्मभूयाय कल्पते ब्रह्मणो हि प्रतिष्ठा अमृतस्याव्यवस्य च शाश्वतस्य च धर्मस्य सुखस्य कान्तिकस्य च निर्माणमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा द्वन्द्वे विमुक्ता सुखदुःखसङ्गे गच्छन्ति मूढा पदमव्ययन्त न तद्भासयते सूर न शशाङ्कन पावक यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ममैवांश जीवलोके जीवभूतसनातना मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति सर्वस्य च हृदि सन्निविष्टो मत्ता स्मृतिर्ज्ञानमपोहनं च वेदेश्च सर्वे अहमेव वेद्या वेदान्तकृत् वेदवितेव चाहम् यो मामेव सम्मूढो जानाति पुरुषोत्तमान् सा सर्ववित् भजति मां सर्वभावेन भारता